Namaskaraha. Today we have the sixth session of Ramakatha, where we will be seeing the shlokas from 38 to 44. We will start with the Mangalam. Mitradashar Sirbhutva Rane Hatva Charavanam Rarakshalokan Vaikunthaha Sano Rakshatu Chinmayaha. In the previous session, we have seen the shlokas concerned with the Balakanda, Ravana getting boons from Brahma, and Rama's birth, and his protection of Vishwamitra's sacrifice, and marriage with Sita. Then we saw the Ayodhya Kanda, where Rama goes wild. And we also saw the Aranya Kanda, events in the forest, where Shurpanakha tries to get Rama to marry her. And then she goes and reports to Khara and other Rakshasas in Jurasthana, who are then killed by Rama single-handedly. Enraged by this, Ravana, with the help of Marica, lures away Rama and Lakshmana, and he kidnaps Sita, keeps her under arrest in the Ashokavana. We saw till there. So we'll see further shlokas now. Hanumanatha Sugriva Nirdishto Rama Lakshmanau.
Hanumanatha Sugriva Nirdishto Rama Lakshmanau.
Prapya Shrutva Cha Vrittantam.
Prapya Shrutva Cha Vrittantam.
Tena Tau Samayojayat.
Tena Tau Samayojayat. Hanumanatha.
Hanuman.
Oh, Hanuman Atha Sugriva Sugriva Nirdishtaha Rama Lakshmanau Prapya Shrutva Cha Vritta Antam Tena. Okay, Vritta Antam Tena Tau Samayojayat.
Hanuman Atha Sugriva Nirdishtaha Rama Lakshmanau Prapya Shrutvacha Vrittantam Tena Tau Samayojayat. Atha, then, that is Rama and Lakshmana are searching for Sita in the forest. So Hanuman Sugriva Nirdishtaha, ordered by Sugriva. That is, when Rama and Lakshmana go near that Pampa Sarovara, Sugriva, who is on top of the Rishyamukha mountain, so he sees them, is actually scared that they were sent by Vali, and so he sends Hanuman to investigate. So Sugriva Nirdishtaha, ordered by Sugriva, Rama Lakshmanau Prapya, reaches Rama and Lakshmana, that is, comes to them, Vrittantam Shrutva, and hearing their story. Vrittanta is the narrative for the story. So hearing whatever they had to tell, Tena Tau Samayojayat. Samayojayat is to join, to make them meet. Tena Sugrivena Tau Rama Lakshmana. So he united Rama and Lakshmana with Sugriva. Atha Sugriva Nirdishtaha Hanuman Rama Lakshmanau Prapya Vrittantam Shrutva Tena Tau Samayojayat. So then Hanuman, as directed by Sugriva, came to Rama and Lakshmana, heard their story, and united Rama and Lakshmana with Sugriva.
Okay. Atha is Avyayam. Sugriva Nirdishtaha Hanuman. So it qualifies Hanuman, Pratama Vibhakti, both of them. Rama Lakshmanau is Dvitiya Vibhakti and Dvivachanam. Prapya is Lyap Pratyaya. Vrittantam is Dvitiya Vibhakti. Shrutva is Iktva Pratyaya. Tena is Tritiya Vibhakti. Tau is Dvitiya Vibhakti, no. Dvitiya Vibhakti, and Samayojayat is Langlakar.
Correct. So, Sam and Ayojayat. Samayojayat is Lang Lakara. Hanumanatha Sugriva Nirdishto Rama Lakshmanau.
Hanumanatha Sugriva Nirdishto Rama Lakshmanau.
Prapya Shrutvata Vrittantam.
Prapya Shrutvata Vrittantam.
Tena Tau Samayojayat.
Tena Tau Samayojayat.
Pratijajneta Dharamaha.
Pratijajneta Dharamaha.
Hanishyamiti Valinam.
Hanishyamiti Valinam.
Darshayishyami Vaidehim.
Darshayishyami Vaidehim.
Ityanyena cha samshrutam.
Ityanyena cha samshrutam. Pratijajne Sada Ramaha Anishyami Iti Valinam. Darshayishyami Vaidehimiti Vaidehimiti Anyena cha samshrutam. Is that right?
Correct. Pratijagye Tada Ramaha Hanishyami Iti Valinam. Darshayishyami Vaidehim Iti Anyena cha samshrutam. So Tada then as Sugriva and Rama met. Ramaha Pratijagye. Rama vowed, promised. What? Valinam Hanishyami Iti. That I will kill Vali. Thus Rama promised. Hanishyami is in the future. So I will kill Vali. Anyena by the other. The other is Sugriva. So by the other Samshrutam. It was vowed or promised. What? Vaidehim Darshayishyami. I will Darshayishyami. Show you Vaidehi. Okay, so you will see Vaidehi, so I will make you see. So Pashyati Darshayati, what we call the causal niche. Pashyati, Pashyati Darshayati. So Darshayishyami. So I will make you see Vaidehi. That is, I will show Sita. Iti Anyena Sugriveda Samshrutam. So Rama promised to kill Vali. In turn, Sugriva promised to search and show Sita.
What is Samshrutam?
Samshrutam is was word. Passive.
Oh.
Was.
Okay.
So, tada Ramaha Valinam Hanishyami Iti Pratijagye Anyena cha Vaidehim Darshayishyami Iti Samshrutam. So Rama promised saying I will kill Vali and by the other, but is by Sugriva, it was promised that he would show Sita.
Okay. So, Sada is Avyayam. Ramaha is Pratama Vibhakti. Valinam is Dvitiya Vibhakti. Hanishyami is future, that is Bhavishyat Kalaha. It will be Lrit Lakaraha. And Uttama Purushaha Ekavachanam. Iti Prati Jagne, I think is Litlakaraha. Anyena is Dvitiya Vibhakti. Cha is Abhyayam. Vaidehim is Dvitiya Vibhakti. Darshayishyami is again Litlakaraha. Uttama Purushayeka Vachanam. Iti Samshritam. Samshritam is Karmani Prayoga Kriya only.
So it is Prathama Vibhakti. Pratijagnye tadaramo.
Pratijagnye tadaramo.
Hanishyami tivalinam.
Hanishyami tivalinam.
Darshayishyami vaidehim.
Darshayishyami vaidehim.
Ityanyena cha samshrutam.
Ityanyena cha samshrutam.
Krita-chinnastu-rāmena Punareva-savālinam
Punareva-savālinam
Rana-yāhvaya-takshipram
कृष्णायाः क्वयतः क्षिप्रम्
तस्थौ रामस्तिरोहितः
कृतचिह्नः तु रामेण पुनः इव
एव
पुनः एव करेक्ट् करेक्ट् एव वृद्धिसन्धि नो हियर्
नो देयर इज नो सन्धि देयर इज पुनर एव पुनरेव
ओ पुनरेव ओके सः बालिनम् रणाया आह्वत सो इट मस्ट बी रणाय रणाय आह्वयत क्षिप्रम् तस्तौ रामः तिरोहितः
कृतचिह्नः तु रामेण पुनः एव सः वालिनम् रणाय आह्वयत क्षिप्रम् तस्थौ रामः तिरोहितः So actually we have skipped some verses in between. As I had mentioned, this is a selection from the Ramodanta. So there is no continuity. So he says, Punaha eva, again, Saha, Saha is Sugriva. Actually what has happened in between the two verses is, Sugriva on Rama's assurance goes and invites, challenges Vali for fight. Vali and Sugriva start fighting. But Rama is not able to make out the difference between Vali and Sugriva. So he does not want to kill Sugriva and he does not release his arrow. Sugriva is severely beaten up by Vali and he comes back injured, somehow escapes and then he comes and accuses Rama. And then Rama says, I was not able to find out. So now, Ramena Krita Chinhaha. So marked by Rama. That is, Lakshmana goes and brings some wild flowers and makes a garland out of it. So, he is now, Sugriva wears that garland as identification. So, Krita Chinha. Chinha is a mark, an identification. So, Ramena Krita Chinha. So, having, being marked by Rama, Saha Sugrivaha, Punareva, again, Valinam, Vali, Ranaya Ahvayata, challenged for battle. Kshipram is quickly. So, Kshipram Ranaya Ahvayata. So, he again went and quickly challenged Vali for another fight. Ramaha Tirohitaha Tasthau. Rama stood. Tasthau is lit of Tishthati. Tishthati litlakare Tasthau. So, Rama stood. Tirohitaha is hidden. So, Rama stood hidden. सः तु रामेण कृतचिह्नः पुनः एव वालिनम् रणाय क्षिप्रम् आह्वयत रामः तिरोहितः तस्थौ सः सुग्रीव रामेण कृतचिह्नः बीङ्ग् मार्क्ड् बै राम अगेन् इन्वैटेड् चालेञ्ज्ड् वाली फार् बेटल् क्विक्लि राम स्टुड् हिडन्
So, Saha is Sahi Pratama Vibhakti, Tu is Avyaya, Ramena is Sitiya Vibhakti, Krita Chinnaha qualifies actually Saha Sugriva, Krita Chinnaha, Punaha is again Avyayam, Eva is Avyayam, Valinam is Dvitiya Vibhakti, Ranaya is Chaturthi Vibhakti, Kshipram is Dvitiya Vibhakti, Ahvayata is Alang Lakara and Ramaha is again Prathama Vibhakti. Tirohitaha is Prathama Vibhakti. Tastau is Lit Lakara of Tishtati.
Correct. Krita Chinhastu Ramena.
Krita Chinhastu Ramena.
Punareva Savalinam.
पुनरेव सवालिनम्
रणायाह्वयत क्षिप्रम्
रणायाह्वयत क्षिप्रम्
तस्थौ रामस्तिरोहितः
तस्थौ रामस्तिरोहितः
बाणेन वालिनम् रामो
बाणेन वालिनं रामो
विद्वा भूमौ न्यपातयत्
विद्वा भूमौ न्यपातयत्
सोऽपि राम इति ज्ञात्वा
सोऽपि राम इति ज्ञात्वा
देहं त्यक्त्वा दिवं ययौ
देहं त्यक्त्वा दिवं ययौ बाणेन वालिनं रामः विद्वा भूमौ न्यपातयत् सः अपि रामः इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ
बाणेन वालिनं रामः विद्वा भूमौ न्यपातयत् सः अपि रामः इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ रामः बाणेन विथ् हिज् एरो वालिनं विद्वा विध्यति इस् टु पियर्स् सो पियर्सिंग् वाली विथ् हिज् एरो भूमौ न्यपातयत् सो मेड् हिम् फाल् सो अगेन् पतति पातयति to make him fall, to fell. So he felled Valin to the ground. So he made him fall. Saha api, saha Vali. So Vali to Ramaha iti jnatva. So knowing that he was hit by none other than Rama, deham tyakva. So he left his body, divam yayau. And literally it means went to the heaven. So it's an expression for he died. रामः वालिनं बाणेन विद्ध्वा भूमौ न्यपातयत् सः अपि रामः इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ राम पियर्स्ड् वालिन् वित् एन् एरो एण्ड् मेड् हिम् फाल् टु द ग्रौण्ड् वालिन् रियलैज्ड् दट् हि वाज़् हिट् बै राम हि लेफ्ट् हिस् बाडि एण्ड् अस्केप्ड् टु हेवन् हि डैड्
ओके सो रामः इस् प्रथमा विभक्ति वालिनम् इस् द्वितीया बाणेन इस् तृतीया विद्वा इस् ऐ थिंक सम इट मस्ट बी अ कृदन्त भूमौ इस् इट सप्तमी विभक्ति ओके न्यपातयत् that is past tense lang lakara saha prathama vibhakti api is avyayam ramah prathama vibhakti iti is avyayam nyatva is itva pratyaya deham is dvitiya vibhakti tyaktva is again itva pratyaya divam yayau divam is dvitiya vibhakti yayau is I think it must be litlakar.
Correct. Banena valinam ramo.
Banena valinam ramo.
Vidhva bhuma unyapatayat.
Vidhva bhuma unyapatayat.
Sopi rama iti jnatva.
Sopi rama iti jnatva.
Deham tyaktva divam yayau.
Deham tyaktva divam yayau.
सुग्रीवो राघवं दृष्ट्वा
सुग्रीवो राघवं दृष्ट्वा
वचनात्तस्य वानरान्
वचनात्तस्य वानरान्
न्ययुङ्क्त सीताम् अन्वेष्टुम्
न्ययुङ्क्त सीताम् अन्वेष्टुम्
आशासु चतसृष्वपि
आशासु चतसृष्वपि सुग्रीवः राघवं दृष्ट्वा वचनात् तस्य वानरान् न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृषु अपि ओके
सुग्रीवः राघवं दृष्ट्वा वचनात् तस्य वानरान् न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृषु अपि सुग्रीवः राघवं दृष्ट्वा सो ही केम टू सी राघव दिस इज एक्चुअली आफ्टर द ब्रेक सो वंस वाली डाइ सुग्रीव इज कोरोनेटेड बाय देन इट इज द रेनी सीजन एंड सो नथिंग कैन बी डन सो रामा वेट्स इन द फॉरेस्ट and then so after that once the rainy season is all over sugrivah raghavam drishtva so he comes to rama tasya vachanat and by his word vanaran nyayunkta nyayunkta appointed vanaran different vanaras sitam anveshtum to search for sita चतसृषु आशासु अपि आशा मीन्स् डिरेक्षन् दिशन्तु प्रकृतः काष्ठा आशाश्च हरितश्च ताः सो दिशः द डिरेक्षन् चतसृषु इन् आल् द फोर् डिरेक्षन् सो हि सेण्ड् डिफरेण्ट् ग्रूप्स् आफ् मङ्कीस् इन् द आल् द फोर् डिरेक्षन्स् टु लुक् फार् सीता सुग्रीवः राघवं दृष्ट्वा तस्य वचनात् चतसृषु अपि आशासु सीताम् अन्वेष्टुम् वानरान् न्ययुङ्क्त
सुग्रीवः इस् प्रथमा विभक्ति राघवम् इस् द्वितीया दृष्ट्वा इस् इक्त्वा प्रत्यय तस्य इस् षष्ठी विभक्ति वचनात् इस् पञ्चमी विभक्ति चतसृषु qualifies aashasu it is in saptami vibhakti bahuvachanam as an adjective of aashasu which is also in saptami vibhakti bahuvachanam api is avyayam sitam is dvitiya vibhakti anveshtum is again dvitiya vibhakti vanara
avyaya
avyaya Vanaran is Dvitiya Vibhakti and Bahuvachanam and Nyayunkta is must be Litlakara.
Ayunkta. Ni Ayunkta. Nyayunkta.
Ni Ayunkta. Okay.
Langlakara.
Okay.
Sugrivo Raghavan Drishtva.
Sugrivo Raghavan Drishtva.
Vachanatasya Vanaran.
वचनात् तस्य वानरान्
न्ययुङ्क्त सीताम् अन्वेष्टुम्
न्ययुङ्क्त सीताम् अन्वेष्टुम्
आशासु चतसृष्वपि
आशासु चतसृष्वपि
अभिवाद्याथ सकलान्
अभिवाद्याथ सकलान्
अमरान् पवनात्मजः
अमरान् पवनात्मजः
उप्लुवे च महेन्द्राद्रेः
उप्लुवे च महेन्द्राद्रेः
लङ्घयितुमर्णवम्
विलङ्घयितुमर्णवम् अभिवाद्याथ
अभिवाद्य अथ
अभिवाद्य अथ सकलान् अमरान् पवन आत्मजः मस्ति समस्तपद उप्लुवे च महेन्द्र आद्रेहे
अद्रेहे
अद्रेहे विलङ्गयितुम् अर्णवम्
दिस् इस् द बिगिनिङ्ग् आफ् द सुन्दरकाण्ड इन् द रामोदन्त अभिवाद्य अथ सकलान् अमरान् पवन आत्मजः पवनात्मजः उप्लुवे च महेन्द्र अद्रेहे विलङ्घयितुम् अर्णवम् अथ देन् सकलान् अमरान् अभिवाद्य अभिवाद्य बोयिङ्ग् डौन् टु आल् द गाड्स् सो सकलान् अमरान् अमरान् निर्जरा देवाः सो गोयिङ्ग् डौन् टु आल् द देवास् पवन आत्मजः पवनः इस् द विण्ड् गाड् नभस्वद्वात पवन पवमान प्रभञ्जनाः सो पवन इस् द विण्ड् आत्मजः आत्मज अनय सूनुः द सन् सो द सन् आफ् द विण्ड् गाड् दट् इस् हनुमान् पुप्लुवे पुप्लुवे इस् जम्प्ड् आर् टु कार् ఫ్రమ్ వేర్ మహేంద్ర అద్రేహే అద్రి పర్వత మౌంటైన్ అద్రి గోత్ర గిరి గ్రావాచల శైల శిలోచయ. సో అద్రి ఇస్ మౌంటైన్, మహేంద్ర ఇస్ ద నేమ్ ఆఫ్ ద మౌంటైన్. సో మహేంద్రాద్రేహే, సో హీ జంప్డ్ ఆర్ లీప్డ్ ఫ్రమ్ ద మహేంద్ర మౌంటైన్ విలంఘయితుం టు క్రాస్ అర్ణవం, అర్ణవః సముద్రః టు క్రాస్ ద ఓషన్. సో అథ పవనాత్మకః సకలాన్ అమరాన్ అభివాద్య అర్ణవం విలంఘయితుం మహేంద్రాద్రేహే పుప్లువే చ. సో దెన్ హనుమాన్ ద సన్ ఆఫ్ వాయు బోర్డ్ డౌన్ టు ఆల్ ద దేవస్ అండ్ లీప్డ్ ఫ్రమ్ ద మహేంద్ర మౌంటైన్ టు క్రాస్ ద ఓషన్.
అథ ఇస్ అవ్యయం, పవనాత్మజః ప్రథమా విభక్తి, సకలాన్ అమరాన్ ఇస్ బోత్ ఆర్ ద్వితీయ విభక్తి బహువచనం, అభివాద్య ఇస్ యాక్చువల్లీ ఐ థింక్ దిస్ ఇస్ ల్యప్ ప్రత్యయ అభివాద్య, అర్ణవం ఇస్ ద్వితీయ విభక్తి, విలంగయితుం ఇస్ తుమున్న ప్రత్యయ, మహేంద్రాద్రేహే ఇస్ పంచమి విభక్తి ఏకవచనం, పుప్లువే ఇస్ లిట్లకార చోర్స్ అవ్యయం.
అభివాద్యాథ సకలాన్,
అభివాద్యాథ సకలాన్
అమరాన్ పవనాత్మజః,
అమరాన్ పవనాత్మజః
పుప్లువే చ మహేంద్రాద్రేహే,
పుప్లువే చ మహేంద్రాద్రేహే
విలంఘయితుమర్ణవం,
విలంఘయితుమర్ణవం
పాదపంకంచిదారుహ్య,
పాదపంకంచిదారుహ్య
తత్ఫలాశైస్సు సంవృతః,
తత్ఫలాశైస్సు సంవృతః
ఆస్తే స్మ మారుతిస్తత్ర,
ఆస్తే స్మ మారుతిస్తత్ర
సీతేయమితి తర్కయన్,
సీతేయమితి తర్కయన్ పాదపం కంచిత్ ఆరుహ్య తత్ ఫలాశైహి సుసంవృతః ఆస్తే స్మ మారుతిహి తత్ర సీతేయం ఇతి తర్కయన్. సీతా
ఇయం,
ఓ సీతా యం ఇతి తర్కయన్,
సీతా యం ఇతి తర్కయన్ పాదపం కంచిత్ ఆరుహ్య తత్ఫలాశైహి సుసంవృతః ఆస్తే స్మ మారుతిహి తత్ర సీతా యం ఇతి తర్కయన్. So there is a huge jump in the story also. So he crosses the ocean. Everything in between the ocean is not described here, as in it is not selected for the syllabus. So now Hanuman has entered the Lanka. He has searched everywhere and he has come to the Ashoka Vana. So, Kanchita Padapam Arushya. Padapa is vriksha, a tree. So climbing Arushya. Having climbed some tree, tat palashaihi, palasha here is leaf. So palasha is also a specific tree, but in this context it just means leaves. So tat palashaihi, by its leaves, susamvrataha, well covered. So hidden amongst the leaves of that tree, maruti, Hanuman, aste sma. So he was sitting there, he was waiting. తత్ర యం సీతా, దిస్ ఇస్ సీతా, యం ఇస్ సర్వనామ లైక్ ఏషా, ఇదం సీత ఇస్ యం, సో దిస్ సీతా ఇతి తర్కయన్. సో గెస్సింగ్ సో హీ హస్ సీన్ హర్ అండ్ హీ థింక్ గెస్సెస్ దట్ షీ ఇస్ సీతా. సో బై హర్ స్టెయిన్డ్ క్లాత్, బై హర్ టియర్ స్టెయిన్డ్ ఫేస్ అండ్ ఆల్ దట్ హీ గెస్సెస్ దట్ మస్ట్ బి సీతా. కంచిత్ పాదపం ఆరుహ్య తత్ఫలాశైః సుసంవృతః మారుతిః सीता इयम् इति तर्कयन् आस्ते स्म. सो हैविंग क्लाइम्ड सम ट्री वेल कवर्ड बाय इट्स लीव्स, सो हनुमान सैट देयर वंडरिंग इफ दिस वाज सीता, गेसिंग दैट इट मस्ट बी सीता.
ओके, सो कंचित इज द्वितीय विभक्ति एकवचनम, पादपम
अव्ययम्. It is derived from kam.
It becomes an avyayam. Okay. Yeah. Oh, I didn't know that was the way we had to. Okay, good. So kanchit is derived from dvitiya vibhakti ekavachanam. Padapam is again dvitiya vibhakti. Aruhya is lyapratyaya. Tatpalashaihi is tritiya vibhakti bahuvachanam. Susamvritaha is again ikka pratyaya. Marutihi is prathama vibhakti. Sita
is also prathama. It qualifies marutihi.
Oh, susamvritaha qualifies marutihi. Okay. Sita iyam. Sita and iyam. Iyam qualifies sita. This sita and prathama vibhakti. Iti is abhyayam. Tarkayan. Aste sma. Tarkayan is I think it's shatru pratyaya.
Shatru prathama
vibhakti. Prathama vibhakti. Aste sma is must be, right? Sitting there. Sat there or something.
Yeah. So sma is an avyaya, aste is the kriyapada. So aste is like vandate. It is latlakara. But as I said before, whenever latlakara is joined with sma, it gives the sense of bhutakala, past tense.
Okay.
Sma is was seated.
Okay.
Padapankanchidaruhya.
Padapankanchidaruhya.
Tatpalashaisusamrataha.
Tatpalashaisusamrataha.
Aste sma marutistatra.
Aste sma marutistatra.
Sita yamiti tarkayan.
Sita yamiti tarkayan.
Yes, today we saw the Kishkindha Kanda, where Hanuman comes to Rama and Lakshmana and takes them to meet Sugriva. Sugriva and Rama promise to help each other. So Vali is killed by Rama, and then Sugriva sends the vanaras in all directions to look for Sita. And then in the Sundarakanda, Hanuman crosses the ocean and reaches Ashokavana. He sees Sita in the Ashokavana. Dasharathirbhutva rane hatva saravanam dadash rarakshalokar vaikuntha vano rakshatu chinmayaha.